इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भाजपेति दलस्य कार्यकारी अध्यक्षः नितिन नवीनः नूतन राष्ट्रिय अध्यक्षत्वेन ह्यः निर्वाचितः। दलस्य राष्ट्रिय निर्वाचनाधिकारिणः डॉक्टर के लक्ष्मण इत्येषः दलाध्यक्षत्वेन श्रीनवीनस्य नियुक्तिघोषणां कृतवान्। नवदिल्ल्यां भाजपादलस्य मुख्यालये संघटनपर्वणः अवसरे निर्वाचनस्य प्रमाणपत्रं च तस्मै प्रायच्छत्। भाजपादलस्य वरिष्ठः नेता प्रधानमन्त्री च नरेन्द्रमोदी, केन्द्रीयमन्त्री अमितशाहः, राजनाथसिंहः, जेपीनड्डा, नितिनगडकरी च श्रीनवीनस्य सम्मानम् अकुर्वन्। अस्मिन् अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना भाजपादलस्य राष्ट्रिय अध्यक्षत्वेन नियुक्ताय श्रीनवीनाय वर्धापनं प्रदत्तम्। सहैव प्रधानमन्त्रिवर्यः भाजपेति दलं विश्वस्य बृहत्तमं दलत्वेन अपि समबोधयत्। प्रधानमन्त्री अधोरेखितवान् यत् श्रीनवीनस्य पार्श्वे युवशक्तेः संघटनकार्यस्य च विस्तृतः अनुभवः अस्ति, यः दलस्य कार्यकर्तॄणां कृते अतीव लाभप्रदः भविष्यति।
नितिन नवीन जी हम सभी के अध्यक्ष है और उनका दायित्व सिर्फ भाजपा को भी संभालना इतना नहीं है, एनडीए के सब साथियों के बीच भी उन्होंने तालमेल का बहुत बड़ा दायित्व भी देखना होता है। माननीय नितिन जी के संपर्क में जो भी आया है वो उनकी सरलता और सहजता की चर्चा जरूर करता है। नितिन जी ने हमेशा जो जो जिम्मेवारी मिली अपने आप को उन्होंने साबित किया है।
प्रधानमन्त्री मोदी इत्यपि अकथयत् यत् विगतेभ्यः मासेभ्यः संघटनस्य लघुत्तमात् विभागात् आरभ्य राष्ट्रिय अध्यक्षस्य निर्वाचनपर्यन्तं च सम्पूर्णप्रक्रिया पूर्णतया लोकतान्त्रिकरूपेण कृतास्ति। सभां सम्बोधयन् नवनिर्वाचितः भाजपादलस्य राष्ट्रियः अध्यक्षः नितिननवीनः दलस्य सर्वोच्चस्थानं प्राप्तुं प्रधानमन्त्रिणं प्रति कृतज्ञतां प्रकटितवान्। भाजपेति दलस्य अध्यक्षः नितिननवीनः आगामि केरल विधानसभा निर्वाचनस्य कृते विनोद तावडे निर्वाचनप्रभारी, शोभा करन्दलाजे च निर्वाचनसहप्रभारिरूपेण दायित्वं प्रदत्तवान्। सहैव श्रीनवीनः आगामि तेलंगाना नगर निगमयोः च निर्वाचनाय आशीष सेलारं निर्वाचनप्रभारिरूपेण, अशोक परनामी, रेखा शर्मा इत्युभौ निर्वाचनसहप्रभारिरूपेण च दायित्वं प्रदत्तवान्। उपराष्ट्रपति सीपी राधाकृष्णनवर्यः अद्य कर्णाटकराज्यस्य यात्रायां भविष्यति। तुमकुरुनगरस्य श्रीसिद्धगंगामठे श्रीशिवकुमारमहास्वामिवर्यस्य सप्तमे स्मृतिदिने सः मुख्यातिथिरूपेण भागं भजिष्यति। उपराष्ट्रपति बेंगलुरुनगरे सीएमआर प्रौद्योगिकी संस्थायाः रजतमहोत्सवेऽपि भागं भजिष्यति। निर्वाचनायोगः अद्य नवदेहलीनगरे गणतन्त्रनिर्वाचनप्रबन्धनविषये 26,000-तमवर्षस्य भारतन्ताराष्ट्रियसम्मेलनस्य आयोजनं करिष्यति। त्रिदिवसीयेऽस्मिन् सम्मेलने विश्वस्य 70-तोप्यधिकाः देशाः, प्रायः 100-अन्ताराष्ट्रियप्रतिनिधयः च भागं भजिष्यन्ति इत्यपेक्षते। केन्द्रीय सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अवदत् यत् भारतम् अर्थव्यवस्थायाः प्रत्येकस्मिन् क्षेत्रे कृत्रिम बुद्धिमत्तायाः व्यवस्थित प्रसारस्य विषये अवधानं प्रददाति। दावोस नगरे विश्व आर्थिक मञ्चे एआई पावर प्ले नो रिफ्रेज इति शीर्षकाधारिते सत्रे भाषमाणः आसीत्। महिला प्रीमियर क्रिकेट लीग क्रिकेट श्रृंखलायां दिल्ली कैपिटल्स दलेन गतरात्रौ बडोदरा नगरे मुंबई इंडियंस दलं 7-0 पराजितम्। तत्रैव पुरुष क्रिकेट क्रीडायाम् अद्य भारत न्यूजीलैंड देशयोः मध्ये 20-प्रति20 अन्ताराष्ट्रिय क्रीडा श्रृंखला आरभ्यते। श्रृंखलायाः प्रथमा क्रीडा अद्य नागपुरे सायं 7 भविष्यति। इति वार्ताः।